नमस्सर्वेभ्यः अस्मिन् पाणिनीयव्याकरणवर्गे सर्वेषां सुस्वागतम्। प्रार्थनया आरम्भं कुर्मः। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्यो नमः। पाणिनीयव्याकरणवर्गे सर्वेषां पुनः स्वागतं करोमि। वयं गतवर्गे धातुगणानां पुनस्मारणं कृतवन्तः, तथैव धातुगण अभ्यासः वयं सर्वे उत्तरं कृतवन्तः, तथैव द्वितीयकरपत्रमस्ति अस्माकं मूलयन्त्राणि, तत्र माहेश्वराणि सूत्राणि वयं पठितवन्तः, तथैव स्वराणां भेदाः, माहेश्वरसूत्रात् प्रत्याहाराः कथम् उत्पद्यन्ते इति सर्वं वयं पठितवन्तः। अग्रिमपठनात् पूर्वम् एकवारं धातुगणानाम् अभ्यासं कुर्मः। गतवर्गे कुत्र समापितवन्तः इति कोऽपि स्मरति वा? ध्वनिः श्रूयते वा?
आं महोदय।
कुतः पर्यन्तं वयं कृतवन्तः?
ददाति वर्गं ददाति
नास्ति तत्र गतवर्गे स्वप् इति धातुः स्वपिति इति क्रियापदपर्यन्तं वयम् अभ्यासं कृतवन्तः। उत्तमं मता। इदानीं वयं किञ्चित् अभ्यासं कुर्मः। तिज् इति धातुः भवन्तः सर्वे भादिगणा भादि अदादि दुहुत्यादि तिवादि स्वादि सुदादि सुधादि तडादि त्रयादि सुरादि इति गणानां विकरणप्रत्ययं जानन्ति। तेषां क्रियापदानि कथं भवन्ति, तट्लकारे कथं भवन्ति इत्यपि भवन्तः जानन्ति एव, अतः पुनस्मरणं न आवश्यकम्। अतः भवन्तः एव वदन्तु, कोऽपि वदतु। तिज्यति धातुः ते जयति इति कः वक्तुमिच्छति?
सुरादिगणः।
उत्तमं, सुरादिगणः। किमर्थम्?
आ नत्वं भवति, आ प्लस् या। महोदय, तेजयति इज् प्लस् आय तेजयति।
उत्तमम्, अय इति श्रूयते, अतः सुरादिगणः। उत्तमम्, बहु उत्तमम्। अग्रिमधातुः ऋण् इति धातुः, ऋणोति, ऋण् ओ इति ऋणोति। सृज् इति धातुः सृज्यते इति रूपं सृज्यते कस्मिन् गणे भवति
दिवादिगणे अस्ति वा महोदय य
उत्तमं दिवादिगणे दीव्यति दीव्यते नृत्यति क्रुध्यति इत्यादीनि क्रियापदानि सन्ति यकारः रूपं भवति ष्यन् इति विकरणप्रत्ययः उत्तमं मतम् अग्रे राध् इति धातुः राध्नोति इति क्रिया कस्मिन् गणे भवति इति वदन्ति
स्वादिगणे
उत्तमं स्वादिगणे एव शृणोति इत्यादीनि क्रियापदानि सन्ति आप्नोति शक्नोति इत्यादि अतः नो इति श्रूयते श्नु इति व्यकरणप्रत्ययः उत्तमं मतम् अग्रिमधातुः तृष् इति धातुः तृष्यति इति रत्नकार प्रथमपुरुष एकवचनरूपं
दिवादिगणे
उत्तमं मतम् उत्तमं दिवादिगणे पा धातुः पाति
पाति अदादिगणः द्वितीयगणः किमपि न योजयामः
अस्ति इत्यादीनि क्रियापदानि उदाहरणानि अतः मध्ये कोऽपि वर्णः नास्ति इति कारणेन अदादिगणः उत्तमं तिष्ट शिष् इति धातुः शिनष्ठि इति रूपं
रुदादिगण
उत्तमं रुधादिगणे एव रुणद्भि इति धातोः मध्ये आगच्छति श्नम् इति विकरणप्रत्ययः सकारः मकारः च लोपः भवति इत्युक्ते इत्संज्ञकः भवति इत्संज्ञकः इत्युक्ते किम् यस् संज्ञा इत्युक्ते एकनामकरणम् इत् इति एकनामकरणम् येषां वर्णानाम् एवं नामकरणं क्रियते तेषां लोपः भवति लोपः इत्युक्ते अदर्शनं वयं द्रष्टुं न शक्नुमः दृष्णम् इति अस्ति शकारः अथवा मकारः रूपे नास्ति न दृश्यते अतः तेषां लोपः अभवत् अर्थात् इत्संज्ञकवर्णः इति वयम् अवगच्छामः अतः न इत्येव अवशिष्यते सः नकारः धातोः मध्ये आगच्छति षि योगः षकारः अतः मध्ये नकारः भवति क्षिनश् इति अतः साक्षात् किं प्रत्ययः आगच्छति क्षिनष्टि इति ष्ठुत्वसन्धिः भवति अतः क्षिनष्टि इति रूपम् रुधादिगणः उत्तमं मत ज्ञा धातुः जानाति इति क्रियापदम्
क्रयादिगणे
उत्तमं क्रिया क्रीणाति इत्यादीनि गृह्णाति इत्यादीनि क्रियापदानि त्रयादिगणे भवन्ति अतः ज्ञा इति धातुः जानाति न इति मध्ये श्रूयते उत्तमम् अतः क्रियादिगणं सन् इति धातुः तनोति इति
स्वादिगणे अस्ति
स्वादिगणे नास्ति तत्तु सन् ओति
नास्ति
उत्तमं सन् ओति तनोति
सनादिगणे
सन् ओति तनोति सा नोति इति अस्ति चेदेव स्वादिगणः यतः अतः एतत् तनादिगणीय धातुः उत्तमं वञ्च् इति धातुः वञ्चयते
सुरादिगणक
सुरादिगणक उत्तमम् अतः वञ्च् इति अस्ति अय इति श्रूयते मध्ये अतः सुरादिगणः उत्तमम् अतः रुद् इति धातुः रोदिति इति क्रियापदम् एतत् किञ्चित् कठिनः एव परन्तु वयं वदामः चेत् पश्यामः चेत् बहु सुलभं
भ्वादिगणे वा
भ्वादिगणः चेत् इकारस्य एकारः भवेत् किल
उकारः ओकारुद्
भ्वादिगणस्य विकर्णप्रत्ययः कः वद सप्रत्यये अकारः एव अवशिष्यते किल अत्र तु इकारः
तत्र गुणकार्यम् अस्ति चेत्
अन्य कोऽपि वदतु एतत् एषः धातुः कस्मिन् गणे
तुदादिगणे वा महोदय
तुदादिगणे आ इत्येव मतम्
आम्
स्वादिगणे वा
अत्र नो
आं नकार
अस्तु अहमेव वदामि सम्यक् श्रुणोतु यत्र विकारः इति विकर्णप्रत्ययः कुत्रापि अतः अत्र इट् इति एकः आगमः तत्र इट् इत्युक्ते इ इति मात्रम् अवशिष्यते अतः टकारः गच्छति इत्युक्ते इत्युक्तः वर्णः इ इत्येव अवशिष्यते रुद् योगः इ योगः इति रोदिति इति रूपम् तत् कथम् इति वयम् अग्रे पठामः अतः मध्ये कोऽपि विकरणप्रत्ययः नास्ति इति कारणेन अदादिगणीयः धातुः अवगतं
वा
अदादिगणीयधातुः रोदिति इति अदादिगणीयः अस्तु मृष्यति धातुः मृष्यति मृष्यति रूपम् कोऽपि वदतु कस्मिन्
दिवादिगणे वा
दिवादिगणीयः तत्रैव ष्यन् इति विकरणप्रत्ययः य इति रूपं हा इति धातुः जहाति इति रूपं
जुहोत्यादिगणः
बहु उत्तमं जुहोत्यादिगणः यतः तत्रैव द्वित्वं भवति धातोः अतः जहाति हा इत्येव अस्ति किल किमर्थं जा इति अस्ति इति प्रश्नः भवेत् तत् वयम् अग्रे पठिष्यामः तेषां सर्वेषां विवरणं वयम् अग्रे पठामः अतः चिन्ता नास्ति उत्तमं सा इति धातुः साति इति व्यापदम्
उदादिगणे वा
उदादिगणे वा उत्तमं सा इति धातुः एव आ इति अस्ति अत अतः साति तत्र इतोपि अकारः कोऽपि न आगतः अतः साति इत्येव रूपम् अतः अदादिगणः उत्तमम् धातुं तथैव रट्लकाररूपं च पुनः एकवारं पश्यन्तु तदा भवन्तः ज्ञातुं
विकरणकृत्य नास्ति
श्री इति धातुः
दिवादिगण
नास्ति माता
सुरादिगणः
नास्ति माता भवादिगणः किमर्थम् इति एकः प्रश्नः भवति श्री इति धातुः अस्ति इकारः अस्ति वा इकारस्य गुणवर्णः कः कोऽपि वदतु
श्रे श्रे भवति श्रे गुणः
एकारः इकारस्य एकारः अतः श्रे तत्र एकसन्धिकार्यं भवति अय् आदेशः भवति अतः एकारस्य अय् इति भवति श्रय् श्रय् योगः अकारः श्रय श्रय योगः इति श्रयति अतः भादिगणीयधातुः उत्तमं मतम् अवगतं वा सर्वेषां कृते प्रथमं विकारस्य एकारः भवति अनन्तरम् एकारस्य ऐ इति आदेशः भवति आदेशः इत्युक्ते किम् एकस्य वर्णस्य स्थाने अन्यः वर्णः आगत्य उपविशति तं वर्णं निष्कासयति इति शत्रुवत् शत्रुः किं करोति एकस्य राज्ञः स्थानम् आगत्य तं निवार्य सः सिंहासने उपविशति एवं शत्रुवत् अत्र एकः वर्णः आगत्य अन्यं वर्णं निवारयति तस्मिन् स्थाने अन्यः वर्णः आगत्य उपविशति तदेव आदेशः एकारस्य ऐ इति आदेशः भवति अतः इष् युर् ऐ आ ति वर्णमेलने श्रयति इति रूपम् अतः आ इत्येव विकरणप्रत्ययः इकारस्य गुणः अस्ति इति कारणेन भादिगणः उत्तमम् तृष्यति धातुः तृष्यति इति क्रियापदम्
दिवादिगणे
दिवादिगणे
उत्तमं तृष्यति अतः ष्यन् इति विकरणप्रत्ययः दिवादिगणः उत्तमं तृ इति धातुः तृणोति इति क्रियापदम्
स्वादिगण
स्वादिगणे
उत्तमं तृ ो इति श्रूयते अत्र ऊर्धन्यनकारः अस्ति इति कारणेन णत्वम् अभवत् नकारस्य स्थाने णकारः आदेशः न तथ दध न तस्य नकारस्य स्थाने ट दध न सः ऊर्धन्यनकारः आदेशः भवति अतः किमर्थमित्युक्ते ऋकारः तृ इत्यत्र ऋकारः अस्ति इति कारणेन आदेशः भवति णत्वं भवति अतः तृणोति इति क्रियापदं स्वादिगणः उत्तमं क्षिप् इति धातुः क्षिपति इति क्रियापदम्
अदादिगणः
विकरणप्रत्ययः न भवति क्षिप् आसि इति श्रूयते अतः
अदादिगण
भवितुम् अर्हति परन्तु इकारस्य एकारः नास्ति अतः सुदादिगणः अकारः अपि अस्ति गुणः अपि नास्ति इत्युक्ते सुदादिगणः एव
ओ
उत्तमं युत् इति धातुः यो ते इति रूपम्
उ ओकारः भवति भ्वादिगण प्रथमः भ्वादिगणः
उकारस्य ओकारः भवत् सकारे परे अकारः अपि श्रूयते अतः भ्वादिगणः उत्तमं मतः छिद्र इति धातुः छिद्रयति इति क्रियापदम्
चुरादिगणे
उत्तमं मतम् अयेतः चुरादिगणः तृ इति धातुः अरति इति क्रियापदम्
अदादिगणे
अदादिगणे अकारः नास्ति मतम् हर् आदिगणे
प्रथमगणः
उत्तमम् आदिगुणे एव गुणः भवति केषां वर्णानां गुणः भवति इकारस्य ईकारस्य स्थाने ये आदेशः भवति उकारस्य ऊकारस्य स्थाने ओ इति आदेशः ऋकारस्य ऋकारस्य स्थाने अर् इति आदेशः ऋकारस्य स्थाने अल् इति आदेशः तत्र वयं न पठामः तत्र न आवश्यकम् एतत् मात्रं स्मरामः सर्वदा तथैव विष् इति धातुः विशति इति क्रियापदम्
तुदादिगणे
पुनः नास्ति अकारः अपि श्रूयते अतः सुदादि धातुः गमयति इति क्रियापदम्
चुरादिगणे
उत्तमं गम् इति धातुः तत्र णिच् प्रत्ययोजनेन गमि इति धातुः भवति अतः गमयति इति सुदादिगणीय उत्तमम् अभ्यासः समाप्तः तत्र ध्वनिमुद्रणं श्रुत्वा एव भवन्तः भवन्तः उत्तरं ज्ञातुं शक्नुवन्ति भवता गृहपाठे यानि उत्तराणि लिखितानि तत् उचितं वा इत्यपि भवन्तः पश्यन्तु अस्तु इदानीं वयम् अग्रे गच्छामः वयं द्वितीयकरपत्रे माहेश्वराणि सूत्राणि पठितवन्तः एकवारं अथ माहेश्वराणि सूत्राणि अयि उं ऋलुक् एवों ऐ औच् हयवरट् लण् न्यमगणनं झभञ् घढधश् जबगडदश् खफ छट तचटतौ कपै शेषसर् हल् इति माहेश्वराणि सूत्राणि एवं चतुर्दशसूत्राणि भवन्ति नटराजस्य डमरुकतः शब्दः आगतः तत् स्वीकृत्य पाणिनिः सूत्राणि लिखितवान् तदाधारीकृत्य एव संस्कृतव्याकरणग्रन्थः सुविख्यातग्रन्थः अष्टाध्यायी ग्रन्थं लिखितवान् पाणि एवम् एकैकसूत्रेपि कुतः सूत्रपर्यन्तं कर्तव्यं ते कानि वर्ण कानि अक्षराणि वक्तव्यं तावत् वयं वक्तुं शक्नुमः प्रथम अक्षरं स्वीकृत्य तथैव अन्तिमव्यञ्जनाक्षरपर्यन्तं वदामः उदाहरणार्थम् अच् इति प्रत्याहारः प्रत्याहारः इत्युक्ते वर्णानां समूहः अतः अच् इति वदामः चेत् के के वर्णाः अन्तर्भूताः भवन्ति
सर्वे स्वराः
सर्वे स्वराः
के के वर्णाः
ऐ ऊ ऐ ऋ ऐ औ
सर्वेपि स्वराः भवन्ति तत्र अ इ ऋ एवो अयौ इति वर्णाः अन्तर्भूताः भवन्ति एतेषां नाम अतः एव शब्दपाठेषु वयं कुत्रचित् पठामः अजन्तः हलन्तः इति. अजन्तः इत्युक्ते किम्? अच् अन्ते यस्यतः अजन्तः. इदानीं राम अथवा कृष्ण शिव इति अस्ति चेत् तत्र अन्ते अ इति अस्ति, तत् अकारः अच्वर्णः किल, अतः एव अजन्तः इति वदामः. हल् इत्युक्ते के के वर्णाः अन्तर्भूताः?
व्यञ्जनानि सन्ति,
सर्वाणि व्यञ्जनानि. हयवर लम नण झप घटद झप गदद खप चटद चटद खप चषद इति एतानि अक्षराणि व्यञ्जनाक्षराणि अन्तर्भूतानि भवन्ति. अतः हल् इति वदामः चेदेव तेषां ग्रहणं भवति. ग्रहणम् इत्युक्ते सूर्यग्रहणं नास्ति, अत्र तु स्वीकरणं, यदा स्वीकुर्मः तस्य स्वीकरणम् इति भवति. गृह्णाति इति क्रियापदस्य ल्युट्प्रत्ययः ल्युट्प्रत्ययः ग्रहणं स्वीकरणम् इति अर्थः. किं प्रत्याहारः कथं सम्भवति इति वयं पठितवन्तः. तथैव स्वराणां व्यञ्जनानां भेदाः तत् वयं दृष्टवन्तः. एक अकारः अस्ति चेत् तत्र ह्रस्वः भवति, दीर्घः भवति, प्लुतः, एवं त्रिविधः. तत्र ह्रस्वे ह्रस्व अकारे उदात्तः अनुदात्तः स्वरितः इति त्रिविधमस्ति. एवम् अपि दीर्घे अपि उदात्त अनुदात्तस्वरित, प्लुते अपि उदात्त अनुदात्तस्वरितकारः अस्ति. तथैव तस्मिन् उदात्त अनुदात्तस्वरितेषु अपि एकैकत्र अनुनासिकः अननुनासिकः इति अस्ति. एवं चेत् कथं भवति? त्रीणि तथैव त्रीणि तथैव वयं तावत्य अष्टादश भवति, अष्टादश अकाराः भवन्ति. अकारः एव अष्टादश भिन्नभिन्न अकाराः सन्ति. तथैव इकारस्य उकारस्य ऋकारस्यापि एवं न इत्यस्य दीर्घः नास्ति, अतः किञ्चित् त्रिषु द्वयं युक्तं भवति. सः द्वादश भेदाः एव भवन्ति इकारस्य. अतीव एवो अय्यौ इत्यत्र ह्रस्वः नास्ति इति कारणेन तत्रापि द्वादश एकैकवर्णस्यापि द्वादश भेदाः भवन्ति. ये अस्ति चेत् तत्र द्वादश, औ द्वादश, ऐ द्वादश, ओ द्वादश, एवम् एकैकवर्णस्यापि भेदान् वयं दृष्टवन्तः. व्यञ्जने अक्षरेषु सवर्गः 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 इति वर्गीयव्यञ्जनानि, यर अन्तस्थाः ऊष्माणः इति अवर्गीयव्यञ्जनानि. कवर्गे कवर्गवर्णानां कृते कु इति वदामः इति व्याकरणनाम भवति. तथैव सवर्गस्य सु इति नाम व्याकरणेषु व्याकरणग्रन्थेषु. तथैव सवर्गस्य तु सवर्गस्य तु सवर्गस्य उ इति व्याकरणे नामकरणं भवति. कुत्रचित् भवन्तः टु अथवा तु कु चु इति वयं पश्यामः चेत् सूत्रेषु वा पश्यामः चेत् कवर्गः अथवा टवर्गः इति अवगच्छामः. ऊष्माणः इत्युक्ते अन्तस्थाः यरलव ऊष्माणः अन्तस्थाः चत्वारि ऊष्माणः चत्वारि अक्षराणि भवन्ति वर्गीयव्यञ्जनानि अवर्गीयव्यञ्जनानि. एतदेव स्वराणां व्यञ्जनानां भेदाः. इदानीं कुत्र उच्चारणं कर्तव्यम् इति एकवारं पश्यामः. अत्र दृश्यते वा?
आम् महोदय.
एतत् कस्मिन् स्थाने केषां वर्णानां वदनं क्रियते? पश्यन्तु, एतत् ओष्ठम् जिह्वा, एतदेव जिह्वा. तथैव एतत् उपरि उपरितनं उपरितनभागः अस्ति. एतत् एषा जिह्वा अस्ति, एषः दन्तः. अत्रापि उपरितन दन्तः अस्ति. एवं हनुः कण्ठः, एतत्तु नासिका, नासिकायाः स्थानं भवति. एतदेव नासिकाद्वारम्. एतत् नासिकाद्वारम्. अतः एतत् मुखस्य द्वारं कण्ठतः आगत्य, कण्ठतः एवं गच्छामः चेत् मुखस्य द्वारम्, एवं गच्छामः चेत् नासिकायाः द्वारम्. एतदेव नासिकाभिलमस्ति. भिलम् इत्युक्ते द्वारम्. अग्रभागः पुरतनभागः, यत्र पुरतः अस्ति तत् अग्रम् इति उच्यते. जिह्वा अग्रं, जिह्वा मध्यं, जिह्वा मूलम् इत्युक्ते अन्ते यदस्ति तदेव मूलम् इति वदामः. इदानीं कण्ठतः वायुः आगच्छति, तदा स्निग्धसालुः. सालुः इत्युक्ते साक्षात् उपरि यदस्ति तदेव सालुः. साक्षात् उपरि, जिह्वा मध्ये अस्य साक्षात् उपरि तदेव तालुः. किञ्चित् प्राक् भवति तदेव मूर्धम्. इतोपि किञ्चित् बस्वाः. जिह्वा अग्रं तथैव ओष्ठौ दन्ताः वयं जानीमः. एतत् स्निग्धतालु, स्निग्धधातु तालु इत्युक्ते कण्ठस्य तालोः च मध्यम्, तदेव स्निग्धतालुः. अत्र सामान्यतया कण्ठः इत्येव उच्यते. अत्र एकदोषः अस्ति वीर्यकरणसमये, अत्र एषः विसर्गः अत्र न आगन्तव्यः. स्निग्धतालुः यत्र आगन्तव्यः तत्र वीर्यकरणसमये दोषः भवति. तथैव कुत्र वयं वदामः चेत् जिह्वामूलस्य तथैव स्निग्धधालोः च उच्चारणं कुर्मः. तत् किम्? इदानीं वयम् उच्चारणं पश्यामः. अकुहविसर्जनीयानां कण्ठः, अत्रत्य कण्ठस्य अर्थः स्निग्धतालुः. पश्यन्तु सिद्धतालुः अत्र अस्ति, नो चेत् अत्र पश्यन्तु जिह्वा मूलतः सिद्धतालुपर्यन्तं स्पर्शः कर्तव्यः, स्पर्शनं स्पर्शयितव्यं, तदेव स्निग्धतालुः। अकुहविषविचरीयानां कण्ठः इति स्निग्धतालुः, अकारस्य सवर्गस्य तथैव विसर्गस्य च, विसर्गस्य अन्यनाम विसर्जनीयः अथवा विसर्गः, द्वयमपि वक्तुं शक्यते। विसर्गः इति वयं सामान्यतया वदामः, विसर्गः तथैव अकारः कवर्गीयवर्णाः, तथैव हकारः एते वर्णाः सिद्धतालुमध्ये वक्तव्याः। पश्यन्तु उच्चारणं भवन्तः म्यूट् मध्ये एव कृत्वा पश्यन्तु, विसर्गः इति अकारस्य त्रिविधमस्ति किल, ह्रस्वदीर्घप्लितः तथैव कवर्गः ह ख ग घ ङ, तथैव हकारः ह विसर्गः ह, एतदेव स्निग्धतालमध्ये वक्तव्याः वर्णाः। इचुयशानां तालु इत्युक्ते तालु, ई वर्णाः तथैव शवर्गीयवर्णाः, अनन्तरं यकारः शकारः या तालुः, कुत्र अस्ति तालुः? अत्र अस्ति। पश्यन्तु इत्युक्ते ह्रस्वदीर्घप्लुतः, अनन्तरं चवर्गः छ छ ज झ ञ, वयं मूर्धायां वा ह्रस्वाः वा चवर्गम् उच्चारणं कुर्मः, तत्तु दोषः। तमिळ्भाषायामपि व्याकरणसमये चवर्गस्य च वर्गाणां कृते तालुमध्ये एव वक्तव्यम् इति नियमः, तथैव संस्कृते अपि तालुमध्ये एव चवर्गः वक्तव्यः, परन्तु वयं चवर्गं मूर्धायां वा वस्वायां वा वयं कुर्वन्तः स्मः, तत्तु दोषः, तालुमध्ये एव कर्तव्यम्। छ छ ज झ ञ, इचु यशानां यकारः य, श शिवः शकारः, सः सकारः मात्रम् अत्र वक्तव्यः, शिवः श श य ञ झ झ छ छ इ इ इ इचु यशानां तालुः, इकारस्य चवर्गस्य चवर्गीयवर्णस्य तथैव यकारस्य हकारस्य च तालुः। ऋटिरशानां मूर्धा ऋ तथैव टवर्गीयवर्णाः टठ डढन ऋ ष, एतत् सर्वं मूर्धायां वक्तव्यम्। मूर्धा इत्युक्ते कुत्र अस्ति पश्यतु, जिह्वाग्रं स्वीकृत्य मूर्धायां स्थापनं कर्तव्यम्। पश्यन्तु मूर्धायां स्थापनं कर्तव्यं तदेव ऋटुरशानां मूर्धा ऋ ऋ ठ ट ठ ड ढ न र ष ष इम ऋटुरशानां मूर्धा इति सूत्रेण सूत्रं नास्ति कौमुद्याः पङ्क्तिः अस्ति सिद्धान्तकौमुदी इति वयं वदामः किल तदेव अतः मूर्धायां वयं वदामः अग्रिमं लृतुरसानां दन्ताः अत्र लृ लृ इति उच्चारणं न कर्तव्यं लृ नास्ति लृ इति एकवर्णः एव नास्ति संस्कृते लृ 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 इति दीर्घः नास्ति लृ लृ एतदेव लिकारः तथैव तवगः तथ दधन ल स एतेषां वर्णानां दन्ताः जिह्वाग्रं स्वीकृत्य दन्ताः उपरितनग्रन्थे दन्तेषु वयं स्थापयामः तदा उचित उच्चारणम् आगच्छति लि त थ द ध न ल छ स एतदेव दन्ताः लृतुरसानां दन्ताः इति सूत्रं लकारः सवर्गीयवर्णाः तथैव लकारः सकारः एतेषां वर्णानां दन्ताः उपोपध्वानीयानामोष्ठौ उ ऊ पफ बभम इफ् इति एतेषां वर्णानाम् उच्चारणम् ओष्ठौ तत्र यदा वयम् ऊकारं वदामः तदा ओष्ठस्य सम्पूर्णं उद्घाटनं न कुर्मः किञ्चिदेव उद्घाटनं कुर्मः बहु न्यूनं भवितव्यं द्वारं द्वारं बहु न्यूनं भवति तथैव प फ ब भ म एतत् नासिकया वदामः तथैव उपध्वानीयः इफ् इति सौण्ड् भवति इफ् बालकः पठति बालकः पठति बालकः पठति इह् नास्ति इफ् इफ् सौण्ड् विसर्गस्य इफ् इति सौण्ड् भवति तदेव उपध्वानीयः इह्फ इह्फ फकारस्य फकारस्य च अतः उपोपध्वानीयानामोष्ठौ ओष्ठे वयम् उच्चारणं कुर्मः कुत्र अस्ति ओष्ठौ वयं जानीमः अत्र ओष्ठौ अतः उपू उ पू इत्युक्ते पू इति वयं दृष्टवन्तः किल पवर्गः कुत्रचित् उ इति पकारः वा चकारः वा अस्ति चेत् तस्य तं वर्गं स्वीकरोति निर्दिशति इति अर्थः एतदेव उपूभत्नानीयानाम् ओष्ठम् न्यमगणनानां नासिका च येषां नासिकया उच्चार्यमाणाः ते नासिकाः अनुनासिकवर्णः इति वयं दृष्टवन्तः, अतः ङ्यमगणनम् इति सूत्रमपि दृष्टवन्तः. ङ्यमगणन इति वर्णानां नासिका ताल्वासिः. ताल्वादि इत्युक्ते पश्यन्तु तालो आदि इतः एतत् पर्यन्तं वक्तव्यम्. जिह्वा मध्यमस्ति किल, जिह्वामध्यं तालु स्पर्शनं कर्तव्यं, तथैव स्पर्शनं कर्तव्यं, तथैव नासिकया अपि वक्तव्यम्. जिह्वामध्यं, मध्ये जिह्वा तालोः स्पर्शनं, तथैव नासिकायाम् उच्चारणम्. इति वदामः. अवगतं वा?
आम् महोदय.
आम् महोदय.
महोदय
अवगतं किल? एतदेव उच्चारणस्थानम् इति वदामः. तथैव येदैतोः कण्ठतालुः, येदैतोः कण्ठतालुः, ये ऐ वर्णानां कण्ठतालुः. कण्ठतालुः इत्युक्ते कण्ठस्य तालोः मध्ये स्निग्धतालुः. ये ऐ स्निग्धतालौ वदामः. येदैतोः कण्ठतालुः, एकारस्य ऐकारस्य च कण्ठतालुः स्निग्धतालुः. ओदौतोः कण्ठोष्ठम्, ओ औ, ओ औ कण्ठतः. जिह्वा मध्यं, जिह्वा मूल, जिह्वा अग्रं न कार्यं कर्तव्यम्. ओष्ठौ बहु न्यूनं भवितव्यं, द्वारम् ओष्ठयोः द्वारं न्यूनं भवितव्यं. तथैव कण्ठतः वायुः आगन्तव्यम्, ओ औ. एवम् ऐकारस्य एकारस्य च जिह्वा मध्यं तालौ स्पर्शनं कर्तव्यम्, ए. तथैव कण्ठतः वायुः अपि आगन्तव्यम्, ए ऐ, ओ औ. बकारस्य दन्तोष्ठं, बकारः दन्तस्य ओष्ठस्य च स्पर्शनं. उपरितन दन्तः तथैव अधस्तन ओष्ठं, जिह्वामूलीयस्य जिह्वामूलं, जिह्वामूलीयस्य जिह्वामूलमेव. अतः एव तस्य जिह्वामूलम् इति नाम. जिह्वामूलम् इत्युक्ते अन्ते यत् पश्यन्तु, अत्र जिह्वामूलमस्ति वा, अतः एव जिह्वामूले. हकारस्य जिह्वामूलमेव, अतः हकारस्य अत्रैव. नासिकानुस्वारस्य, नासिका अनुस्वारस्य. अनुस्वारः यदा वदामः नासिकया वदामः. संस्कृतं मकारः इव. जिह्वामूलीयम् इत्युक्ते इह् सौण्ड् भवति, अतः एव हकारस्य जिह्वामूलीयस्य च विसर्गस्य च जिह्वामूलमेव. जिह्वामूलं स्निग्धतालौ स्पर्शनं कर्तव्यम्. अवगतं वा सर्वेषाम्? एतदेव उच्चारणमस्ति, अस्तु वा?
अवगतम्, अवगतम्.
अक्षराणां भेद एतावत् वयं किं किं पठितवन्तः, कोऽपि वदतु.
माहेश्वरसूत्राणि, उत्पत्तिस्थानम् अपि च.
अनन्तरं स्वराणां भेदाः, व्यञ्जनानां भेदाः.
आं भगिनि,
इदानीं वयं, अहं गणे प्रेषितवान् किल प्रत्याहाराणाम् अभ्यासः, भवन्तः कृतवन्तः वा?
आम् झष्वर्णाः कुत्र सन्ति झष्वर्णाः
च ब ग ड द
उत्तमं झष्वर्णाः
हयवरखश्न भगिनि
नास्ति माता जश् जश्वसन्धिः इत्यादि वदामः किल
जबगडदश
उत्तमं खर्वर्णाः खर्
काप चाठथ चटतौ कपै शश श सर्
उत्तमं कफ चटत चटत कप शश स इति अक्षराणि अन्तर्भूतानि भवन्ति इत्युक्ते खर्वर्णाः कर्कषव्यञ्जनानि मृदुव्यञ्जनानि ञश् अस्तु षर्वर्णाः
श ष मूर्धन्यता
श ष उत्तमम् अक्वर्णाः अक्वर्णाः हण्वर्णाः येच्वर्णाः
अस्तु
भवन्तः सर्वे बहु उचिततया कृतवन्तः अभिनन्दनानि इदानीं वयम् अग्रिमकरपत्रं प्रति गच्छामः पाणिनीयं सूत्रं कथं पठनीयम् इदानीं सूत्रं किमपि पठामः चेत् वयं कथं तस्य विभाजनं कुर्मः कथं तस्य अर्थम् अवगन्तुं शक्नुमः इत्यादि तेषाम् अर्थाः अर्थः कः इत्यपि वयं द्रक्ष्यामः इदानीं पाणिनीयसूत्रं कथं पठनीयम् इति करपत्रम् संस्कृते व्याकरणे कार्यम् इति उच्यते इदानीं टिप् इति अस्ति पठ् आ टि अत्र पूर्वम् अस्ति पठौ शप् टिप् इति विषयः तत्र पठ् इति भवति श आ इति भवति टि इति भवति अतः एव पठति इति रूपं सिध्यति तत् एककार्यं भवति इत्संज्ञा इत्युक्ते तदेककार्यम् एवं संस्कृतव्याकरणे त्रीणि प्रधानकार्याणि सन्ति तानि कानि इत्युक्ते आदेशः प्रथमः आदेशः पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः यदि योगः अपि तत्र इकारस्य इ इति आदेशः भवति अतः यद्यपि एकस्य वर्णस्य स्थाने अन्यः वर्णः आगत्य उपविशति शत्रुवत् एषः एव आदेशः एतदेकं कार्यम् आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः एकः वर्णः भवति तथैव अन्यः एकः वर्णः अपि आगत्य तत्रैव उपविशति तस्य वर्णस्य स्थानेन उपविशति तस्य वर्णस्य समीपे एव उपविशति पूर्वं वा परं वा तस्मात् वर्णात् पूर्वम् अथवा तस्य वर्णस्य परं वा उपविशति त
तस्य वर्णस्य स्थाने न भवति, भवति चेत् तत्र आदेशः, सः वर्णः अपि भवति, ये यः वर्णः आगतः सः अपि भवति. एतदेव आगमः. तृतीयं कार्यं लोपः, वर्णस्य अदर्शनम् इत्संज्ञा. वयं द्रष्टुं न शक्नुमः, अन्यः वर्णः अपि आगत्य न उपविशति, सः वर्णः अपि न भवति, किमपि वर्णं तत्र न भवति. इदानीं श्नु इति अस्ति, तत्र आदेशः न भवति, षकारस्य स्थाने अन्य कोऽपि वर्णः न आगच्छति. षकारस्य वा तस्य मध्ये वा अन्यवर्णः सः अपि भवति, अन्यः वर्णः अपि आगत्य न उपविशति, अतः आगमः अपि न. परन्तु षकारः एव अपगच्छति, परन्तु अन्यवर्णः न आगच्छति, तदेव लोपः. नु इत्येव भवति, षकारः न भवति. एतदेव लोपः. बालकः योगः इच्छति, विसर्गस्य लोपः भवति, बालक इच्छति. एतदेव व्याकरणे, संस्कृतव्याकरणे प्रधानकार्याणि, त्रीणि कार्याणि. अवगतवन्तः वा सर्वेपि?
आं महोदय.
आं महोदय.
एकस्य कार्यस्यापि संस्कृते व्याकरणे एकैक एकसूत्रं वा भवति, तत् कुतः भवति इत्युक्ते अष्टाध्यायीग्रन्थतः भवति. अतः अष्टाध्याय्यां यत् सूत्रमस्ति तत् वयं पश्यामः चेत् बहु विवरणतया वयं द्रष्टुम् अवगन्तुं शक्नुमः. एक उदाहरणार्थम् एकसूत्रमस्ति, निकोयनति, षष्ठमाध्याये, षष्ठ अध्याये प्रथमपादे, प्रथमपादे पादः एकैकस्य अध्यायस्यापि चत्वारः भवन्ति, चत्वारः पादाः भवन्ति, तत्र एषः प्रथमः पादः. तत्र त्रिसप्ततितमसूत्रं 76 षट्सप्ततितमसूत्रं, क्षम्यताम् अहं त्रियवान् षट् सप्ततितमसूत्रम्. इकोयणसि, इकः स्थाने यण् आदेशः भवति अचीपरे संहितायां विषये, इत्युक्ते अच्वर्णः इति इकारं विना, इकारम् अथवा उकारम् इकारः अस्ति चेत् इकारः परे न आगन्तव्यः, उकारः अस्ति चेत् इकारः आगन्तुं शक्यते परन्तु उकारः न आगन्तव्यः. किम् इकः स्थाने यण् आदेशः भवति, यण् इत्युक्ते किं, वयं दृष्टवन्तः किल हयवरट् लण् तत्र यकारतः नकारपर्यन्तम्, य व र ल यवरल यरवल, तदेव यण् वर्णाः. यदा परे इक्वर्णस्य स्थाने यण् आदेशः भवति, कुत्र अच्वर्णः परे अस्ति चेत्, इकः यण् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. इकः षष्ठ्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, द्विपदं द्विपदं सूत्रम्. इदानीम् एकाः इति अस्ति, पञ्चमी वा षष्ठी वा, षष्ठी विभक्तिः एकवचनम्, यण् इति प्रथमविभक्ति एकवचनम्, अचि इति सप्तमी विभक्ति एकवचनम्. अस्मिन् सूत्रे त्रीणि पदानि सन्ति, अतः त्रिपदम् इदं सूत्रम्, त्रीणि पदानि यस्मिन् तत् त्रिपदम्, त्रिपदमिदं सूत्रम्. संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अति संहितायाम्. अनुवृत्तिः इत्युक्ते किम्? अनुवृत्तिः इत्युक्ते पूर्वस्मात् सूत्रात् यः अर्थः स्वीकरणीयः तदर्थं स्थितस्य पदस्य पुनरावर्तनं, तत् स्वीकृत्य अत्रापि योजनं भवति, तत् तत्रैव तिष्ठति. परन्तु अन्यस्य एकस्य सूत्रस्य एकपदम् आगत्य अत्र उपविशति अस्मिन् सूत्रे. किमर्थम्? अर्थबोधनार्थम्. इदानीं संहितायाम् इत्युक्ते किम्? परे अस्ति चेत् यदा संहनता भवति, यदा योजनं भवति तदा इति अर्थः. अतः इदानीं तस्मात् सूत्रात् संहितायाम् इति वयं स्वीकुर्मः, तत् पदं स्वीकृत्य अस्मिन् सूत्रे वयं स्थापयामः. किमर्थम्? अर्थबोधनार्थम्. पश्यन्तु, इकः यण् अचि संहितायाम्, इकः अचि संहितायां यण् आदेशः भवति. इक्वर्णः सन्ति, परे अच्वर्णः सन्ति चेत् यण् वर्णाः आदेशः भवति. पाणिनिना कृत सूत्रे सूत्राणि सर्वाणि अपि बहु दीर्घं न भवन्ति, बहु लघु भवन्ति. सूत्रम् इत्युक्ते किं, कः अर्थः इत्युक्ते बहु न्यूनं भवति पदानि, पदानि न्यूनानि भवन्ति परन्तु अर्थः बहु विस्तृतः भवति, तदेव सूत्रम् इति उच्यते. अतः अष्टाध्याय्यामपि इकोयनति इति एकसूत्रम् एकपदम् इव भवति अत्र, परन्तु तत् कार्यं बहुषु पदेषु भवति. यदि अपि यद्यपि यद्यपि अहं वदामि तथापि भवन्तः लिखन्ति. एवम् एक उदाहरणार्थम् उक्तवान्, यद्यपि एवं वदामः, यद्यपि एतत् सामान्यसूत्रम् इव भवति चेदपि बहुषु पदेषु कार्यं करोति. तदेव लघुत्वं, मूर्तिः लघु भवति, कीर्तिः बहु बृहत् भवति इति वदामः किल, तदेव अत्रापि सूत्रं लघु भवति, कार्यं बृहत् भवति, तदेव सूत्रम्. पाणिनिसूत्रेषु वयं बहु एकमुख्यविषयं पठिष्यामः. इदानीं कस्मिन् सूत्रे वा विभक्तयः भवन्ति? इदानीम् इकः इति षष्टिविभक्तिः दृष्टवन्तः, इकः इति पदस्य षष्टिविभक्तिः इति वयं दृष्टवन्तः, अचि इति सप्तमविभक्तिः. ते तत् किमर्थम् अस्मिन् स्थाने एतत् एषा विभक्तिः आगत्य उपविष्टा इत्युक्ते, तस्य विभक्तस्याः विभक्त्याः एकः अर्थः भवति. एकैकविभक्तेः अपि एकैकार्थः भवति. इदानीं षष्टिविभक्तिः अस्ति चेत् तस्मिन् स्थाने इति अर्थः बहु स्मर्तव्यः. तस्मिन् स्थाने इति अर्थः षष्टिविभक्तिः आगच्छति चेत्, पश्यन्तु इकः इति षष्टिविभक्तिः एव किल, इकः इति षष्टिविभक्तिः. अतः इक्वर्णस्य स्थाने यण् आदेशः भवति. यानि अवगतं वा? इक्वर्णस्य स्थाने इति कारणेन षष्ठीविभक्तिः अत्र प्रयुक्ता अस्ति. इदानीम् अवगन्तुं शक्यते किल? अवगतं वा?
आं भगिनि
माता अहं भगिनी नास्ति भवान् इति अस्ति अस्तु
अस्तु महोदय
तथैव प्रथमाविभक्तिः कुत्रचित् आगच्छति चेत् आदेशः वा आगमः वा नामकरणं वा तत्र भवति इदानीं भूवादयो धातवः इति अस्ति भूवादयः धातवः धातुसंज्ञां प्राप्नुवन्ति धातवः इति प्रथमाविभक्ति एकवचनं अतः नामकरणं भवति भू इत्यादिधातूनां धातुः इति संज्ञा भवति इति एतेन सूत्रेण उक्तम् अतः कुत्रचित् कस्मिन् सूत्रे वा प्रथमाविभक्तिः अस्ति चेत् आदेशः अथवा आगमः नामकरणम् इति वयम् अर्थम् अवगच्छामः अत्र पश्यन्तु यण् इति प्रथमाविभक्ति एकवचनं तत् आदेशः एव किल यण्वर्णानाम् आदेशः एव भवति इति उक्तम् इदानीम् अवगतं वा किमर्थं सप्तमे इति प्रथमाविभक्ति एकवचनं प्रथमाविभक्तिः अस्ति चेत् तस्य तस्याः विभक्तेः आदेशः अथवा आगमः अथवा नामकरणम् अर्थः भवति इदानीं कुत्रचित् प्रथमाविभक्तौ पदमस्ति चेत् तत्र एकम् आदेशः भवितव्यं नो चेत् आगमः अथवा नामकरणं भवति चेदेव प्रथमाविभक्तिः युज्यते अत्र यण् इति प्रथमाविभक्तिः सः आदेशः एव किल यण् आदेशः भवति इदानीम् अवगतं वा मात
आम् महोदय धन्यवादः
वदतु मात
इकः कस्य षष्ठी अस्ति तस्य प्रथमविभक्ति किम्
इकः इको यण् अचि इति सूत्रम् इकः यण् अचि इति विभजनम् अत्र इकः इति षष्ठी विभक्ति एकवचनम्
आम् कस्य षष्ठी अस्ति तत्र अहं पृच्छामि इकः कस्य इकः तस्य प्रथमविभक्ति किम्
इक्
इक् वा
इक् इकौ इकः इकौ इकम् इकौ इकः इका इभ्याम् इभ्यः इके इभ्याम् इभ्यः इकः इभ्याम् इभ्यः इकः इकोः इकाम् इति इकोः
धन्यवादः महोदय
इक् इति प्रथमा एकविषयम्
आम् धन्यवादः महोदय
इकः इति षष्ठी विभक्तिः अस्ति अतः तस्मिन् स्थाने भवति इति अर्थः यण् इति प्रथमा विभक्तौ अस्ति अतः आदेशः भवति इति अर्थः इदानीं सप्तमी अस्ति चेत् किम् इति वयं पठामः सप्तमीभक्तिः अस्ति चेत् पूर्वकार्यम् कुत्र सप्तमी अस्ति तत्र पूर्वकार्यं भवति अत्र पश्यन्तु अचि इति अस्ति वा अचि इति अन्ते अस्ति तत्र अच्वर्णस्य स्थाने किमपि न भवति इक्वर्णः पूर्वं भवितव्यः अच्वर्णः परे भवितव्यः तदा एव यण् इति आदेशः भवति अतः अचि इति सप्तमीभक्तिः प्रयुक्तः सप्तमीभक्तिः आगच्छति चेत् अच्युते परे एव अस्ति किल अतः सप्तमी अस्ति इति कारणेन अचुर्णस्य स्थाने किमपि न भवति तस्मात् पूर्वं यदस्ति तस्य स्थाने एव भवति इक्वर्णस्य स्थाने एव अवगतं वा
आम् अवगतं महोदय यद्यपि मध्ये यदि अपि तर्हि यदि इक्वर्ण अस्ति अपि मध्ये किमपि परिवर्तनं न भवति यदि मध्ये परिवर्तनं भवति.
किमर्थमित्युक्ते अचिः सप्तमविभक्तो अस्ति, अतः पूर्वकार्यं भवति परनिमित्तं. निमित्तं परे अस्ति. अच्वर्णः अस्ति चेदेव ईक्वर्णस्य स्थाने आदेशः भवति, नास्ति चेत् आदेशः न भवति. अतः निमित्तं परे अस्ति, कार्यं पूर्वमस्ति. आ इति निमित्तं, निमित्तं परे अस्ति. इति पूर्वपदे अस्ति, अतः यकारः आगच्छति. कार्यं पूर्वं भवति, पूर्वकार्यं परनिमित्तं. सप्तमविभक्तेः अर्थः पूर्वकार्यं परनिमित्तम्. अवगतं वा सर्वेषां कृते?
आम् आम्
आम्. अच्वर्णाः कुत्र दत्तं सूत्रं मध्ये? अच्वर्णाः इति भवति अचि. अस्तु अस्तु महोदय, धन्यवादः.
अचि पञ्चमे भक्तिः. पञ्चमे भक्तिः कुत्रचित् अस्ति चेत् परकार्यं पूर्वनिमित्तम्. कार्यं परे भवति. इदानीम् अत्र सप्तमविभक्ति यदा आगतं, पूर्वकार्यं भवति, परनिमित्तं परे भवति. परन्तु पञ्चमविभक्तौ परे कार्यं भवति, परपदे कार्यं भवति, पूर्वपदे निमित्तं भवति. उदाहरणार्थं रसाभ्यां नूनसमानपदे इति सूत्रं. रसाभ्याम् इति पञ्चमी भक्तिः, रसाभ्याम् इति पञ्चमी. अतः निमित्तमस्ति पञ्चमी भक्ति इति कारणेन पूर्वनिमित्तमस्ति. रकारः वा षकारः वा ऋकारः वा पूर्वं भवितव्यं, परे नकारः भवितव्यम्. एवं चेत् नः इति षष्ट्यन्तं, दशाभ्यां पञ्चम्यन्तं, नः इति षष्ट्यन्तं. षष्ट्यन्तम् आगच्छति चेत् कः अर्थः कोऽपि वदतु?
परकार्यं पूर्वनिमित्तम्.
ये अहं पृष्टवान् षष्ठीभक्ति आगच्छति चेत् कः अर्थः?
स्थाने, स्थाने वा? स्थाने,
स्थाने भवति. नकारस्य स्थाने एव नकारः भवति, न तु रकारस्य वा षकारस्य वा नकारः. नकारस्य स्थाने एव नकारः, ऊर्धन्यनकारः भवति. अतः नः इति षष्ठ्यन्तम्, अतः नकारस्य स्थाने नकारः आदेशः भवति. किमर्थं? नः इति प्रथमान्तम् अस्ति. नः नौ नाः नं नौ नाः. एवं नकारः नः इति प्रथमान्तम् अस्ति, अतः आदेशः. दशाभ्यामिति पञ्चम्यन्तम् अस्ति, अतः पूर्वपदे भवितव्यं, पूर्वनिमित्तम्. कार्यं परे भवति, नकारः परे अस्ति चेदेव भवति. इदानीं वर्णः, वर्ण इति तवर्गीयनकारः एव अस्ति. अत्र रकारः पूर्वमस्ति, नकारात् पूर्वं नकारः अस्ति. अतः दशाभ्यां नूनः समानपदे इति सूत्रेण नकारस्य स्थाने नकार आदेशः भवति, अतः वर्णः इति रूपं भवति. अवगतं वा पञ्चमी भक्तिः? अवगतं वा?
अवगतं महोदय.
आम् अवगतं महोदय.
अत्र पञ्चमी विभक्ति, क्षम्यतां महोदय, अत्र पञ्चमी विभक्ति कुत्र अस्ति?
रसाभ्यां रामात् रामाभ्यां रामेभ्यः इत्यस्ति वा? इति भ्यां श्रूयते किल तथैव अत्रापि रसाभ्याम् इति अस्ति वा अतः पञ्चमी भवति
अस्तु अस्तु सम्यक् धन्यवादः
सप्तमी विभक्तिः आगच्छति चेत् पूर्वकार्यं परनिमित्तं पञ्चमी विभक्तिः आगच्छति चेत् परकार्यं पूर्वनिमित्तम् इदानीं तृतीया विभक्तिः तृतीया विभक्तिः आगच्छति चेत् संयोजनम् एतेन सह एतत् आगच्छति चेत् तस्य स्थाने एकः वर्णः आदेशः भवति इदानीं स्तोः चुना चुः इति एकसूत्रमस्ति स्तोः इति का विभक्तिः कोऽपि वदतु
षष्ठी
षष्ठी भक्ति अतः कः अर्थः
स्थाने
षष्ठी
स्थाने
स्थाने इति अर्थः उत्तमं मतं सकारस्य सवर्गस्य स्थाने इति अर्थः शुना इति तृतीया विभक्तिः अस्ति शुना षकारसवर्गाभ्यां योगे परे षकारः शिवः षकारः सवर्गीयवर्णः अस्ति चेत् इति अर्थः तेषां संयोजनं यदा भवति तदा षकारसवर्गीयवर्णः आदेशः भवति चुः इति प्रथमा विभक्तिः अतः आदेशः इति अर्थः चुः इति प्रथमान्तं चुना इति तृतीयान्तं तृतीयान्तमस्ति इति कारणेन षकारचवर्गाभ्यां योगे चकारः सवर्गीयः परे अस्ति चेत् सकारसवर्गाभ्यां योजनं भवति चेत् योजनं भवति चेत् षकारसवर्गः एव आदेशः भवति इति सूत्रेण उक्तम् इदानीम् अवगतं वा सूत्रेषु विभक्तयः आगच्छन्ति चेत् कस्मिन् अर्थे भवति षष्ठी विभक्तिः आगच्छति चेत् तस्मिन् स्थाने भवति प्रथमा विभक्तिः आगच्छति चेत् आदेश आगमः नामकरणम् एषु अस्तेषु एतेषु अस्तेषु भवति सप्तमी विभक्तिः आगच्छति चेत् पूर्वकार्यं परनिमित्तं निमित्तं परे भवति कार्यं पूर्वं पञ्चमी विभक्तिः आगच्छति चेत् परकार्यं पूर्वनिमित्तं निमित्तं पूर्वं भवति कार्यं परे तृतीया विभक्तिः आगच्छति चेत् संयोजनम् इत्यर्थः यत्र येन वर्णेन सह युज्यते तस्य वर्णस्य तृतीया विभक्तिः भवति अतः किमपि सूत्रं पश्यामः चेत् तेषां पदानां सह का विभक्तिः इति कृत्वा तम् अर्थं वयम् अनुमानं कुर्मः अवगतं वा
महोदय प्रथमम् उदाहरणमस्ति यद्यपि अस्ति खलु इको यणचि द्वितीयमस्ति वर्णः तत् न स्थानेन आगमः भवति तृतीय उदाहरणमस्ति तृतीयविभक्त्या तृतीया विभक्त तस्य एकम् उदाहरणं ददातु कृपया
अत्र अन्यत् च षकारसवर्गयोः षकारसवर्गाभ्यां योगे षकारसवर्गौ स्तः अस्तु वा अवगतं वा सकवर्गः सवर्गीयवर्णः पूर्वमस्ति षकारसवर्गाभ्यां योगे षकारसवर्गयोः षकारसवर्गाभ्यां योगे षकारसवर्गो एव स्तः चवर्गः एव आदेशः भवति अथवा शकारः एव आदेशः भवति. अवगतं वा?
चर्त्वसन्धि वा महोदय? धन्यवादः.
अस्तु, विभक्तयः अवगतं वा सर्वेषां कृते? उदाहरणमस्ति लङ्वरुदात्तः आगमः, कुत्र आगमः भवति इति. इदानीं इदानीं पठितुम् इति अस्ति, पठिति धातुः इकारः कुत्र आगतः इत्युक्ते इकारः आगमः अभवत्, आगतः अस्ति, मध्ये एव अस्ति. तुम् इति तुमन् प्रत्ययः. ई कुत्र अस्ति, कथम् आगतम् इत्युक्ते आगमः अभवत् एकात् उपदेशे रुदात्ता इति. अन्ये एकसूत्रमस्ति, तत् वयम् अग्रे निश्चयेन पठिष्यामः एव, अतः चिन्ता मास्तु. तत् वयं पठिष्यामः. इट् आगमः भवति, वयम् अहं पूर्वमेव उक्तवान् इट् इति आगमः भवति. अन्यः वर्णः कोऽपि न गच्छति, सः अपि भवति, एषः अपि भवति. पठ् इ पठितुम् एतदेव आगमः. आदेशः वयं दृष्टवन्तः, इकः स्थाने यण् आदेशः भवति. इकः स्थाने यण् वर्णाः आदेशाः भवन्ति, तदेव आदेशः. लोपः, तत् वयं दृष्टवन्तः, बालकः इच्छति, बालक इच्छति. नामकरणं सुप्तिङन्तं, तत्र एक उदाहरणमस्ति, सुप्तिङन्तं पदं, सुप्तिङन्तं पदम् इति सूत्रम्. पदम् इत्युक्ते कानि पदानि भवन्ति इत्युक्ते सुप् तथैव तिङ् एतत्रैव पदम् इति संज्ञां प्राप्नुवन्ति. तिङ् प्रत्ययेषु लट्लकारः वा लकारप्रत्ययाः अन्तर्भूताः, किं चेत् संख्या, उपसर्गाः, एवम् एतत् सर्वं कुत्र भवति इत्युक्ते सुप्रत्ययेषु एव अन्तर्भूतानि भवन्ति. सुप् तिङ् एतदेव पदम्. पदम् इत्युक्ते सुप्त्वा भवितव्यम् अथवा तिङ् इति वा भवितव्यं, नो चेत् तत् पदमेव नास्ति. सुप् प्रत्ययानां तिङ् प्रत्ययानां पदम् इति एक नामकरणम् अभवत्. अवगतं वा नामकरणम्? एतत् सप्तमे भक्ति, पञ्चमे भक्ति, द्वितीया, एतेषाम् उदाहरणम्. इदानीम् अस्मिन् स्लैड् मध्ये करपत्रेषु एकसूत्रं ददामः, वदामः चेत् अस्ति चेत् तत्र कथं कथं विभजनं वा विवरणं वा दीयते इति अत्र बहु विवरणतया उक्तं. प्रथमं सूत्रार्थः, एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः, साक्षात् अर्थः कः इति वदामः, तत् प्रथमं. समासानां विग्रहवत् बहुषु सूत्रेषु समासाः सन्ति, सन्ति चेत् तेषां विवरणं दीयते. कुत्रचित् समासः भवति किल, अतः तत्र विभजनं क्रियते. इदानीं छुटु इति एकसूत्रमस्ति, अन्येक एकसूत्रमस्ति. छुटु इति पदं कथम् आगतम् इत्युक्ते तत्र समासः अस्ति. तुश्च, तुश्च, छुटु इति इतरेतरद्वन्द्वसमासः. तत् समासः इत्युक्ते कथं भवति इत्यपि वयं पठिष्यामः, अतः चिन्ता मास्तु. एवं समासानां विग्रहः, तथैव सूत्रे पदानां विभक्तयः इदानीं वयं दृष्टवन्तः किल इकः इत्युक्ते षष्टिविभक्तिः भवति इति तत्र स्लैड् मध्ये एव कृतम् उक्तमः आसीत् लिखितमासीत् तदेव विभक्तेः लेखनम् तथैव सूत्रे अनुवृत्तिः भवति अहम् उक्तवान् पूर्वस्मात् सूत्रात् अर्थबोधनार्थम् अर्थ बहु सुलभ अवगमनार्थम् अन्ये पूर्वस्मात् सूत्रात् एकपदं स्वीकृत्य अत्र स्थापयामः स्थाप्य एकवारं योजयित्वा पठामः तदा अनुवृत्तिः भवति तस्य नाम अनुवृत्तिः इदानीम् अहम् आपणं गच्छामि इति एकः जनकः वदति अहम् आपणं गच्छामि तदा बालः वदति अहमपि इति वदति एतत् श्रुत्वा वयं अवगच्छामः किल परन्तु सः बालकः अहमपि इति मात्रमेव उक्तवान् परन्तु वयम् अवगच्छामः सः वदति अहमपि आपणं गच्छामि अहमपि गच्छामि इति तस्मिन् अर्थे वदति इति वयम् अवगच्छामः इत्युक्ते जनकस्य वाक्यात् वयम् अनुवृत्तिं कुर्मः तस्मात् आपणं गच्छामि इति पदानि वयं स्वीकृत्य अत्र स्थापयामः एतदेव अनुवृत्तिः अधिकारः इत्युक्ते एक बहूनां सूत्राणाम् एकमेव सूत्रं बहुत्र अनुवृत्तिः भवति तदेव अधिकारः अनुवृत्तिसहितं सूत्रम् एकवारं वदामः कुत्र कुतः अर्थबोधनार्थं स्वीकृतानि पदानि स्वीकृत्य एकवाक्यं वदामः एतदेव सूत्राणां विवरणम् इति वयं पठितवन्तः अत्र सन्देहः अस्ति वा अस्तु नास्ति वा सन्देहः नास्ति किल
एतानि वाक्यानि किमर्थं कण्ठस्थीकरणम् आवश्यकं वा महोदय केवलम् अवगच्छामः
तदेव इदानीं वयं समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः धन्यवादः पुनर्मिलामः भवन्तः
धन्यवादः